कुले प्रसूतिः प्रथमस्य वेधसः त्रिलोकसौन्दर्यमिवोदितं वपुः अमृग्यमैश्वर्यसुखं नवं वयः तपः फलं स्यात् किमतः परं वद।
कुल इति प्रथमस्य वेधसः हिरण्यगर्भस्य कुले अन्ववाये प्रसूतिः उत्पत्तिः यज्ञार्थं हि मया सृष्टो हिमवानचलेश्वरः इति ब्रह्मपुराणवचनात् वपुः शरीरं त्रयाणां लोकानां सौन्दर्यम् इव उदितं एकत्र समाहृतम् ऐश्वर्यसुखं सम्पत्सुखम् अमृग्यम् अन्वेषणीयम् न भवति किन्तु सिद्धमेवेत्यर्थः। वयः नवम् यौवनमित्यर्थः। अतः परम् अतः अन्यत् किम् तपःफलम् स्यात् वद। अस्ति चेदिति शेषः न किञ्चिदस्तीत्यर्थः।
भवत्यनिष्टादपि नाम दुःसहात् मनस्विनीनाम् प्रतिपत्तिरीदृशी विचारमार्गप्रहितेन चेतसा न दृश्यते तच्चकृषोदरित्वयि।
भवतीति दुःसहात् सोढुम् अशक्यात् अनिष्टात् भर्त्रादिकृतादपि मनस्विनीनाम् धीरस्त्रीणाम् ईदृशी तपश्चरणलक्षणा प्रतिपत्तिः प्रवृत्तिः। प्रतिपत्तिस्तु गौरवे प्राप्तौ प्रवृत्तौ प्रागल्भ्ये इति केशवः। भवति नाम नामेति सम्भावनायाम् विचारमार्गे प्रहितेन चेतसा चित्तेन तदनिष्टम् च। हे कृशोदरि त्वयि न दृश्यते विचार्यमाणे तदपि नास्त्यसम्भावितत्वात् इत्यर्थः।
अलभ्यशोकाभिभवेयमाकृतिः विमानना सुभ्रु कुतः पितुर्गृहे पराभिमर्शो न तवास्ति कः करम् प्रसारयेत् पन्नगरत्नसूचये।
अलभ्येति हे सुभ्रु इयम् त्वदीया आकृतिः मूर्तिः अलभ्यः लब्धुमनर्हः शोकेन भर्त्राद्यवमानजेन दुःखेन अभिभवः तिरस्कारः यस्याः सा तथोक्ता। दृश्यत इति शेषः असम्भावितश्च अयमर्थः इत्याह। पितुः गृहे विमानना अवमानः कुतः न सम्भाव्यत एवेत्यर्थः। सुभ्रुः कुतस्तात गृहेवमाननम् इति पाठान्तरकरणम् तु साध्वसमेव उक्तोपपत्तिसम्भवात्। अन्यत्रापि सुभ्रुत्वम् कुपितेत्यपास्तमशनम् त्यक्ता कथायोषिताम् इत्यादि प्रयोगदर्शनात् वंशस्थवृत्ते पादादौ जगणभङ्गप्रसङ्गाच्चेति अलम् गोष्ठीभिः न च अन्यस्मात् भावीत्याह। पराभिमर्शः परधर्षणम् तु तव नास्ति। पन्नगरत्नसूचये फणिशिरोमणिशलाकाम् ग्रहीतुम् इत्यर्थः। क्रियार्थोपपदस्य च कर्मणि स्थानिनः इति चतुर्थी। करम् हस्तम् कः प्रसारयेत्? सुभ्रु इत्यत्र भ्रूशब्दस्य उवङ्स्थानीयत्वात् नेयङ्वङ्स्थानावस्त्री इति नदीसंज्ञा प्रतिषेधात् अम्बार्थनद्योर्ह्रस्वः इति ह्रस्वत्वम् नास्ति। तेन ह्रस्वः प्रामादिक इति केचित्। अन्ये तु अप्राणिजातेश्च अरज्वादीनाम् इत्यत्र अलाबूः कर्कन्धूः इत्युकारान्तादपि ಊಂ ಪ್ರತ್ಯಯಂ ಉದಾಜಹಾರ ಭಾಷ್ಯಕಾರಃ ಏತಸ್ಮಾದೇವ ಜ್ಞಾಪಕಾತ್ ಕ್ವಚಿತ್ ಊಕಾರಾಂತಸ್ಯಾಪಿ ಊಂಗಂತತ್ವಾತ್ ನದೀತ್ವೇ ಹ್ರಸ್ವತ್ವಮಿತ್ಯಾಹುಃ ಅತಏವ ಆಹ ವಾಮನಃ ಊಕಾರಾಂತಾದಪಿ ಊಂ ಪ್ರವೃತ್ತೇಃ ಇತಿ
ಕಿಮಿತ್ಯಪಾಸ್ಯಾಭರಣಾನಿ ಯೌವನೇ ಧೃತಂ ತ್ವಯಾ ವಾರ್ಧಕಶೋಭಿವಲ್ಕಲಂ ವದ ಪ್ರದೋಷೇ ಸ್ಫುಟಚಂದ್ರತಾರಕಾ ವಿಭಾವರೀ ಯದ್ಯರುಣಾಯ ಕಲ್ಪತೆ
ಕಿಮಿತೀತಿ ಹೇ ಗೌರಿ ಕಿಮಿತಿ ಕೇನ ಹೇತುನಾ ಯೌವನೇ ತ್ವಯಾ ಆಭರಣಾನಿ ಅಪಾಸ್ಯ ವಿಹಾಯ ವೃದ್ಧಸ್ಯ ಭಾವಃ ವಾರ್ಧಕಂ ಮನೋಜ್ಞಾದಿತ್ವಾತ್ ವುಂ ಪ್ರತ್ಯಯಃ ವಾರ್ಧಕಂ ವೃದ್ಧಸಂಘಾತೇ ವೃದ್ಧತ್ವೇ ವೃದ್ಧಕರ್ಮಣಿ ಇತಿ ವಿಶ್ವಃ ತತ್ರ ಶೋಭತೆ ಇತಿ ವಾರ್ಧಕಶೋಭಿ ವಲ್ಕಲಂ ಧೃತಂ ಪ್ರದೋಷೇ ರಜನೀಮುಖೇ ಸ್ಫುಟಾಃ ಪ್ರಕಟಾಃ ಚಂದ್ರತಾರಕಾಶ್ಚ ಯಸ್ಯಾಸ್ಸ ಸ್ಫುಟಚಂದ್ರತಾರಕಾ ವಿಭಾವರೀ ರಾತ್ರಿಃ ಅರುಣಾಯ ಸೂರ್ಯಾಯ ಕಲ್ಪತೆ ಯದಿ ಅರುಣಂ ಗಂತುಂ ಕಲ್ಪತೆ ಕಿಂ ವದ ಬ್ರೂಹಿ ಕ್ರಿಯಾರ್ಥೋಪಪದಸ್ಯ ಇತ್ಯಾದಿನಾ ಚತುರ್ಥೀ ದೀಪ್ಯಮಾನ ಶಶಾಂಕತಾರಕೇ ಪ್ರದೋಷೇ ಯದ್ಯರುಣಃ ಉದೇತಿ ತತಃ ವಿಭೂಷಣಾಪಹಾರೇಣ ತವ ವಲ್ಕಲಧಾರಣಂ ಸಂಘಟತೆ ಇತಿ ಭಾವಃ
ದಿವಂ ಯದಿ ಪ್ರಾರ್ಥಯಸೇ ವೃಥಾಶ್ರಮಃ ಪಿತುಃ ಪ್ರದೇಶಸ್ತವ ದೇವ ಭೂಮಯಃ ಅಥೋಪಯಂತಾರಮಲಂ ಸಮಾಧಿನಾ ನ ರತ್ನಮನ್ವಿಷ್ಯತಿ ಮೃಗ್ಯತೆ ಹಿ ತತ್
ದಿವಮಿತಿ ದಿವಂ ಸ್ವರ್ಗಂ ಪ್ರಾರ್ಥಯಸೇ ಕಾಮಯಸೇ ಯದಿ ತರ್ಹಿ ಶ್ರಮಃ ತಪಶ್ಚರಣ ಪ್ರಯಾಸಃ ವೃಥಾ ನಿಷ್ಫಲಃ ಯದಿ ಸ್ವರ್ಗಾರ್ಥಂ ತಪ್ಯಸೇ ತತಃ ಶ್ರಮಂ ಮಾಕಾರ್ಷೀಹಿ ಕುತಃ ತವ ಪಿತುಃ ಹಿಮವತಃ ಪ್ರದೇಶಾಃ ದೇವಭೂಮಯಃ ಸ್ವರ್ಗಪದಾರ್ಥಾಃ ತತ್ರತ್ಯಾಃ ಇತ್ಯರ್ಥಃ ಅಥ ಉಪಯಂತಾರಂ ವರಂ ಪ್ರಾರ್ಥಯಸೇ ತರ್ಹಿ ಸಮಾಧಿನಾ ತಪಸಾ ಅಲಂ ನ ಕರ್ತವ್ಯಮಿತ್ಯರ್ಥಃ ನಿಷೇಧ್ಯಸ್ಯ ನಿಷೇಧಂ ಪ್ರತಿ ಕರಣತ್ವಾತ್ ತೃತೀಯಾ ತಥಾ ಹಿ ರತ್ನಂ ಕರ್ತೃ ನಾನ್ವಿಷ್ಯತಿ ನ ಮೃಗಯತೆ ಗ್ರಹೀತಾರಮಿತಿ ಶೇಷಃ ಕಿಂತು ತದ್ರತ್ನಂ ಮೃಗ್ಯತೆ ಗ್ರಹೀತೃಭಿಃ ಇತಿ ಶೇಷಃ ನಹಿ ವರಾರ್ಥಂ ತ್ವಯಾ ತಪಸಿ ವರ್ತಿತವ್ಯಂ ಕಿಂತು ತೇನೈವ ತ್ವದರ್ಥಮಿತಿ ಭಾವಃ ವರವಾಚಕಾಕ್ಷರಶ್ರವಣಾನಂತರಮೇವ ದೇವ್ಯಾಃ ಉಷ್ಣೋಚ್ಛ್ವಾಸಂ ಆಲಕ್ಷ್ಯ ಪ್ರಶ್ನೇಷು ಚ ಪ್ರತ್ಯುತ್ತರಂ ಅನುಪಲಭ್ಯ ಸ್ವಯಮೇವ ಆಶಂಕ್ಯ ಆಹ
ನಿವೇದಿತಂ ನಿಶ್ವಸಿತೇನ ಸೋಷ್ಮಣಾ ಮನಸ್ತು ಮೇ ಸಂಶಯಮೇವ ಗಾಹತೆ ನ ದೃಶ್ಯತೆ ಪ್ರಾರ್ಥಯಿತವ್ಯ ಏವತೆ ಭವಿಷ್ಯತಿ ಪ್ರಾರ್ಥಿತ ದುರ್ಲಭಃ ಕಥಂ
ನಿವೇದಿತಮಿತಿ ಸೋಷ್ಮಣಾ ನಿಶ್ವಸಿತೇನ ನಿಶ್ವಾಸವಾಯುನಾ ನಿವೇದಿತಂ ಚಿಂತಾನುಭಾವೇನ ಉಷ್ಣೋಚ್ಛ್ವಾಸೇನ ತೇ ವರಾರ್ಥಿತ್ವಂ ಸೂಚಿತಮಿತ್ಯರ್ಥಃ ತರ್ಹಿ ಕಿಂ ಪ್ರಶ್ನವ್ಯಸನೇನ ಇತ್ಯಾಹ ಮನಸ್ತು ತಥಾಪಿ ಮೇ ಸಂಶಯಮೇವ ಗಾಹತೆ ಪ್ರಾಪ್ನೋತಿ ಕುತಃ ತೇ ತವ ಕೃತ್ಯಾನಾಂ ಕರ್ತರಿವಾ ಇತಿ ಷಷ್ಠೀ ಪ್ರಾರ್ಥಯಿತವ್ಯಃ ಪ್ರಾರ್ಥಯಿತುಂ ಅರ್ಹಃ ಏವ न दृश्यते। प्रार्थित दुर्लभः प्रार्थितः यः दुर्लभः सः कथं भविष्यति नास्त्येवेत्यर्थः।
अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते उपेक्षते यश्लथलं विनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः।
अहो इति अहो चित्रम् तव ईप्सितः आप्तुमिष्टः युवा कोऽपि स्थिरः कठिनः वर्तते इति शेषः। कुतः यः युवा चिराय चिरात् प्रभृति कर्णोत्पलशून्यताम् गते प्राप्ते कपोलदेशे गण्डस्थले स्लथाः शिथिलबन्धनाः अत एव लम्बिन्यः ताः श्लथलम्बिनीः कलमाः शालिविशेषाः तेषाम् अग्राणि तद्वत् पिङ्गलाः जटाः उपेक्षते। यः त्वाम् ईदृशीम् दृष्ट्वा न व्यथते सः नूनम् वज्रहृदय इत्यर्थः।
मुनिव्रतैस्त्वाम् अतिमात्रकर्षिताम् दिवाकराप्लुष्टविभूषणास्पदाम् शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते।
मुनिव्रतैरिति मुनिव्रतैः चान्द्रायणादिभिः अतिमात्रम् अत्यन्तम् कर्षिताम् कृशीकृताम् दिवाकरेण सूर्येण अप्लुष्टानि दग्धानि वातातपसंस्पर्शात् मृदुत्वाच्च श्यामीकृतानि विभूषणास्पदानि भूषणस्थानानि यस्यास्ताम् तथोक्ताम्। अत एव दिवा अहनि शशाङ्करेखामिव स्थिताम् त्वाम् पश्यतः सचेतसः जीवतः कस्य पुंसः मनः न दूयते न परितप्यते अपितु सर्वस्यैवेत्यर्थः।
अवैमि सौभाग्यमदेन वञ्चितम् तव प्रियम् यश्चतुरावलोकिनः करोति लक्ष्यम् चिरमस्य चक्षुषः न वक्त्रमात्मीयमरालपक्ष्मणः।
अवैमीति तव प्रियम् वल्लभम् सौभाग्यमदेन सौन्दर्यगर्वेण कर्त्रा वञ्चितम् विप्रलब्धम् अवैमि वेद्मि। यः प्रियः चतुरम् मधुरम् अवलोकते इति चतुरावलोकिनः अरालपक्ष्मणः कुटिलरोम्णः अरालम् वृजिनम् जिह्मम् इत्यमरः। अस्य त्वदीयस्य चक्षुषः आत्मीयम् वक्त्रम् मुखम् चिरम् लक्ष्यम् विषयम् न करोति दृष्टिपथम् न गच्छतीत्यर्थः। तदयम् गर्वेण हतः निष्फलात्मलाभः जातः इति भावः।
कियच्चिरम् श्राम्यसि गौरिविद्यते ममापि पूर्वाश्रमसञ्चितम् तपः तदर्धभागेन लभस्व काङ्क्षितम् वरम् तमिच्छामि च साधु वेदितुम्।
कियदिति हे गौरी कियत् किम् प्रमाणकम् किमवधिकमित्यर्थः। चिरम् श्राम्यसि तपस्यसि अत्यन्तसंयोगे द्वितीया ममापि पूर्वाश्रमः प्रथमाश्रमः ब्रह्मचर्याश्रमः तत्र सञ्चितम् सम्पादितम् तपः विद्यते अर्थश्च असौ भागश्च तेन तस्य तपसः अर्धभागेन एकदेशेन కాంక్షితం ఇష్టం వరం ఉపయంతారం లభస్వ. తం వరం సాధు సమ్యక్ వేదితుం జ్ఞాతుం ఇచ్ఛామి చ. యద్యసౌ యోగ్యః భవతి తదా మమాపి సమ్మతిరితి భావః.
ఇతి ప్రవిశ్యాభిహితా ద్విజన్మనా మనోగతం సాన శశాక శంసితుం అథో వయస్యాం పరిపార్శ్వవర్తినీం వివర్తితానంజన నేత్రమైక్షత.
ఇతి 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 ఇత్థం ద్విజన్మనా ద్విజేన ప్రవిశ్య అంతర్గత్వా ఆప్తవత్ రహస్యం ఉద్భావ్య ఇత్యర్థః. అభిహితా ఉక్తా సా పార్వతీ మనోగతం హృదిస్థం వరం శంసితుం వక్తుం న శశాక సమర్థా నాభూత్ లజ్జయా ఇతి శేషః. అథో అనంతరం పరిపార్శ్వవర్తినిం వయస్యాం సఖీం వివర్తితం విచాలితం అనంజనం వ్రతవశాత్ వర్జిత కజ్జలం నేత్రం యస్మిన్ కర్మణి తత్తథా ఐక్షత. నేత్రసంజ్ఞయా ఏవ ప్రత్యుత్తరం వాచయాంచకారయిత్యర్థః.
సఖీ తదీయా తమువాచ వర్ణినం నిబోధ సాధో తవ చేత్ కుతూహలం యదర్థమం భోజమివోష్ణవారణం కృతం తపస్సాధనమేతయా వపుః.
సఖీతి తస్యాః పార్వత్యాః ఇయం తదీయా సఖీ వయస్య తం వర్ణః ప్రశస్తః ఇతి క్షీరస్వామి. సహ అస్య అస్తీతి వర్ణినం బ్రహ్మచారిణం. వర్ణాద్ బ్రహ్మచారిణీ ఇతి ఇని ప్రత్యయః. ఉవాచ బ్రూతేస్మ కిమితి. హే సాధో విద్వన్ తవ కుతూహలం చేత్ శ్రోతుమస్తీతి శేషః. తరిహి నిబోధ అవగచ్చ ఆకర్ణయ ఇత్యర్థః. బుధ అవగమనే ఇతి ధాతోః భౌవాదికాత్ లోట్. శ్రోతవ్యం కిం తదాహ. యస్మై లాభాయ ఇదం యదర్థం అర్థేన సహ నిత్యసమాసః సర్వలింగతాచ వక్తవ్యా ఇతి వార్తిక నియమాత్ క్రియావిశేషణం. ఏతయా పార్వత్య అంభోజం పద్మం ఉష్ణవారణం ఆతపత్రమివ వపుః శరీరం తపస్సాధనం కృతం. తపప్రవృత్తికారణం ఉచ్యతే శ్రూయతాం ఇత్యర్థః.